ृषभो विश्वरूपः छन्दोभ्योऽध्यमृतात् संबहुवा समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासं शरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा कर्णाभ्यां भूरिविश्रुवं ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतं मे गोपाय परमादरणीयः संस्कृत विद्यायां विशिष्य आगमादिशास्त्रेषु अपि च भारतीयसंस्कृतौ अत्यन्तनिष्ठिताः दीक्षितमहाभागाः सम्माननीयाः एन्नार् कुमारमहाभागाः ये चेन्नैनगरे संस्कृत इतरस्मिन् क्षेत्रे स्वकीयं कार्यं कुर्वन्तोपि संस्कृतस्य संवर्धनाय उज्जीवनाय प्रचाराय प्रसाराय बद्धकथयः सन्ति चेन्नैनगरे संस्कृतभारत्याः एकः स्तम्भः एकमात्रस्तम्भः एन्नार् कुमार् महोदयः अस्ति यद्यपि कृशः वर्तते बलमधिकमस्ति कार्येण कृशः परन्तु बलेन तु हनुमान् अस्ति चेन्नैनगरे वयं बहुकालतः परस्परं जानीमः एवं अत्र उपस्थिताः विविध अमेरिकादेशस्य विविधप्रान्तेभ्यः अत्र समागताः भ्रातरो भगिन्यश्च मम एतैरुक्तं दीक्षितमहाभागैः मोदः प्रमोद आनन्दः इति इदानीं सा एव अवस्था मयाप्यनुभूयते इत्युक्ते आनन्दस्यापि स्तरत्रयं वर्तते एकः आदिभौतिकानन्दः एकः आदिदैविकानन्दः एकः आध्यात्मिकानन्दः एकः परानन्दः अतः अवस्थात्रयम् अवस्थाचतुष्टयं वयम् अनुभवामः आनन्दस्य मुख्यं कारणम् एतत् यत् एतस्मिन् भारतात् सुमहति दूरे साक्षात् विपरीतदिशि साक्षात् विपरीतप्रदेशे विद्यमानाः अपि भवन्तः भारतस्य संस्कृतेः भारतीयज्ञानविज्ञाननिधीनां मूलभूतम् एकं मञ्जूषात्मकं संस्कृतं वयं पठितुम् अत्र एतावत्या सङ्ख्यया आगताः भवतां सर्वेषां दर्शनेन वयम् उत्साहिताः भवामः कदाचित् अस्मदादीनाम् आगमनेन अस्मदादीनां किञ्चित् भाषणेन किञ्चित् कार्ये अन्वयनेन भवतामपि मनस्सु उत्साहः भवितुमर्हति परन्तु मम दृष्टौ यम् उत्साहं यञ्च बलं वयं भवतः दर्शनेन अनुभवामः ततः वयम् अर्धमेव भवद्भ्यो दातुं शक्नुमः यतोहि सङ्घे शक्तिः कलौ युगे इति वस्तुतः यदा लघु लघु पाठशालासु संस्कृतम् अध्येतुम् अहं प्रवृत्तः आसं बाल्ये जीवने संस्कृतम् अतिरिच्य किमपि नाधीतं संस्कृतमेव अधीतं संस्कृते विद्यारम्भः आसीत् प्रायः संस्कृते एव विद्यापरिसमाप्तिरपि अभवत् न इतस्ततः किमपि अधीतम् अस्माभिः तेषु दिवसेषु एषा कल्पनापि नासीत् यत् अमेरिका इत्यादि देशेष्वपि वयं गच्छामः इत्यपि कल्पना नासीत् अस्तु यथा कथञ्चित् गच्छामः इति भगवान् नयति कापि चिन्ता नास्ति तथापि तत्र गत्वा संस्कृते वदामः इति स्वप्नोऽपि नासीत् अमेरिका मध्ये गच्छामः इत्युक्ते पूर्वमेव भारते प्रयत्नं कृत्वा आगच्छामः आङ्ग्लभाषायां कथं वक्तव्यं कथं व्यवहर्तव्यम् इति बहु प्रयासपूर्वकं प्रयत्नपूर्वकं आङ्ग्लभाषां शिक्षित्वा वयमत्र आगच्छामः परन्तु इदानीं परिवेशः विपरीतः दृश्यते. अत्र आगत्य वयं संस्कृते वदामः, कदाचित् भारते गत्वा आङ्ग्लभाषायां. अतः भवादृश संस्कृतप्रेमिणः, संस्कृत अनुरागिणः, संस्कृत संस्कारशीलिनः जनान् दृष्ट्वा वयम् आनन्दिताः भवामः. मनसि कश्चन विलक्षणः भावनाविशेषः इदानीं प्रवर्तते, येन संस्कृतस्य भविष्यम् अतीव उज्ज्वलमस्ति, संस्कृतस्य भविष्यम् अतीव विशालमस्ति, संस्कृतस्य भविष्यम् अत्यन्तप्रतिष्ठितमस्ति इति वयम् इदानीं विश्वसिमः. एवमेव लोके मनुष्यस्य असौ स्वभावः यत् स्वसम्बद्धजनं यदा यदा वयम् अधिकाधिकं पश्यामः तदा तदा वयम् एकम् आन्तरं बलम् अनुभवामः. तत् सहजतया वर्तते. सामान्यतः यः क्रीडाकारः अन्य विलक्षण अतिशयितक्रीडाकारम् अन्येन अन्यं पश्यति, अधिकसङ्ख्यया अधिकान् पश्यति, तदानीम् एकं समूहशक्तिः. एतदेव शास्त्रेषु व्यष्टिः समष्टिः इति वेदान्ते काचित् प्रक्रिया वर्तते. व्यष्टिचैतन्यं समष्टिचैतन्यं, व्यष्टिबुद्धिः समष्टिबुद्धिः, व्यष्टिचिन्तनं समष्टिचिन्तनम् इति उभयोपि शास्त्रे बहु सम्यक् रूपेण व्यष्टिसमष्टिव्यवस्था वर्तते. तत्र व्यष्टिचिन्तनं व्यष्टि क्षम्यतां व्यष्टिचिन्तनं व्यष्टि प्रयत्नः समष्टिप्रयत्नेन परिपुष्टो भवति. अतः अहं प्रथमम् अत्र उपस्थितम् एकैकमपि अत्र उपस्थिताम् एकैकामपि प्रत्येकशः व्यक्तिशः अभिनन्दामि, येन भवन्तः सर्वे अभिनन्दनार्हाः भवन्ति, भवन्तः सर्वे अतीव धन्यात्मानः सन्ति येषां संस्कृतं पठिष्यामि, संस्कृतं पठितुमिच्छामि इति सङ्कल्पः जातः. लोके कोटिशः जनाः सन्ति, कोटिशः सन्ति, लक्षशः न सन्ति, कोटिशः सन्ति. भारते तु सङ्ख्या अति महती वर्तते इदानीम्. अतः एतादृशमहत् सङ्ख्यायां कति जनानां मनसि एषः सङ्कल्पः सञ्जातः, तर्हि तादृशविशिष्टसङ्कल्पः यस्मात् भवतां हृदये सञ्जातः, अतः भवन्तः स्वयं धन्यात्मानः सन्ति, अपि च अभिनन्दनार्हाः वर्तन्ते. संस्कृतं यदा वयं वदामः किमर्थम् इति वयं वदामः. इदानीमपि यदा कार्याने आगच्छन्तः स्मः तदानीम् एकः विचारः मनसि आगतः, किमर्थं संस्कृतम् अध्येयं, किमर्थं संस्कृतं पठनीयम्. रामायणादिकम् अवगन्तुम् इति वदामः इति कदाचित् रामायणं वा महाभारतं वा भगवद्गीता वा पञ्चतन्त्रं वा हितोपदेशो वा रघुवंशो वा अभिज्ञानशाकुन्तलं वा किरातार्जुनीयं वा पठितुं वयं संस्कृतं पठामः इति यदा वयं चिन्तयामः तदानीं पुनः अन्यः प्रश्नः आयाति यत् तेषां सर्वेषामपि ग्रन्थानां हिन्दीभाषायाम् आङ्ग्लभाषायाम् अन्यान्यभाषासु अनुवादास्सन्ति. अनुवादानां पठनेनापि तत्रत्य सारांशः सारांशं वयं ग्रहीतुं शक्नुमः. भगवतः श्रीरामचन्द्रस्य श्रीरामचन्द्रः कथं मर्यादापुरुषोत्तमो जातः इति तु अवगन्तव्यं वर्तते. रामायणं किमर्थं वदामः, भगवतीं सीताम् अवगन्तुं वयं पठामः, भगवन्तं श्रीरामचन्द्रं पुरुषोत्तमम् अनुभवितुं वदामः. एतत् कदाचित् आङ्ग्लभाषायामपि अनुवादाः सन्ति, तद्वारापि वयम् अवगन्तुं शक्नुमः. निश्चयेन अनुवादानामपि किञ्चित् स्वप्रयोजनमस्ति. येषां तत् मूलभाषायां प्रवेशः येषां नास्ति अथवा यावत्पर्यन्तं नास्ति तावत्पर्यन्तम् अनुवादानां किञ्चित् आवश्यकता वर्तते, किञ्चित् प्रयोजनमपि वर्तते. परन्तु अहमेकमेव उदाहरणम् अहमेकमेव दृष्टान्तं कथयामि. इदानीं बे एरिया इत्यस्य एकं विलक्षणं सौन्दर्यं वर्तते. इतः अत्र अहम् उपस्थितः अस्मि, ततः गवाक्षतः अहं पर्वतस्य मध्यदेशे समुद्रस्य वैभवं पश्यन्नस्मि, विभूतिम् अनुभवन्नस्मि. इदं मया बहुवारं सिनेमा मध्ये वा నో చేత్ ఫోటోగ్రఫీ ద్వారా వా అథవా అన్యాన్య మ్యాగజైన్స్ మధ్య వా అథవా కించిత్ టీవీ ప్రోగ్రామ్స్ మధ్య వా మయా శాన్ ఫ్రాన్సిస్కో అథవా బే ఏరియా ఇత్యస్య వైభవం బహువారం అనుభూతం. తర్హి కిమర్థం గచ్చామి? అనుభూయాపి సౌందర్యం యావదధికం తత్ సౌందర్యం అనుభవంతి తావదధికం తత్ర గంతుమిచ్చంతి. స్విట్జర్లాండ్ ఇత్యస్య వైభవం యావదధికం వయం మీడియా ద్వారా అనుభవామః తావదధికం మనసి ఉత్కట ఇచ్ఛా హ్యః అపేక్షయా అద్య అద్యాపేక్షయా శ్వః ఇచ్ఛా ప్రవర్తతే యత్ కదాచిదపి స్విట్జర్లాండ్ గంతవ్యం కదాచిదపి బేయేరియా గంతవ్యం కదాచిదపి న్యూయార్క్ గంతవ్యం ఇతి ఇచ్ఛా ప్రవర్తతే. యదైవ ధనస్య సంగ్రహం కర్తుం శక్నుమః యదైవ శక్తిః తత్ర భవతి ఝటిపి ప్రథమం తత్రైవ గచ్ఛామః. కిమర్థం? చిత్రే తు దర్శనమభూ. వస్తుతః కిమర్థం ఏతావత్ దూరం ఫుట్బాల్ క్రీడాయాం లక్షశః జనాః గత్వా స్టేడియం మధ్యె అనేకవిధ క్లేశం అనుభవంతి. ఏకవారం భారతే తు విశిష్య అత్ర సవిధ్యాని బహూని అత్ర సవిధ్యాని బహూని అహం మద్రాస్ మధ్యె మైలాపూర్ సంస్కృత్ కాలేజ్ మధ్యె పఠన్నాను. తేషాం తేషు దివసేషు చిదంబరం స్టేడియం ఇత్యేవ భారతే అతీవ విలక్షణం నూతనం ఏకం నిర్మితం ఆసీత్. తేషు 60s మధ్యే ఏవ నూతనం ఎంఏ చిదంబరం స్టేడియం నిర్మితం ఆసీత్. విశాలమితి తేషు దివసేషు ఏకా కల్పనా ఆసీత్. ఏషు దివసేషు తదేవ విశాలం వయం జగత్ అన్యత్ న జానీమః. తర్హి సంస్కృత కాలేజ్ మధ్యే పఠంతః అపి వయం యదా క్రికెట్ క్రీడా భవతి తద్ద్రష్టుం తత్ర గచ్చామః. నవాబ్ పటోడి వాడేకర్ ఇత్యాదయః క్రీడంతః ఆసన్ తేషు దివసేషు కెప్టెన్సీ పటోడి కెప్టెన్సీ మధ్య ఆసీత్. తదానీం గచ్చామశ్చేత్ సర్వే హాహాకారం కురువంతి వయమపి హాహాకారం కురుమ సర్వే హాహాకారం కురువంతి వయమపి కురుమ తత్ర కిమపి న దృశ్యతే. స్టేడియం మధ్యే కిం కుర్వంతి తత్ర తత్ర షార్ట్ సర్క్యూట్ టీవీ యంత్రాన్ని స్థాపయిత్వా తస్య వస్తుతః సాక్షాత్కారో భవతి. అహం ఇదానీం భవత్సు నివేదయామి కిమపి తాదృశం ఉపకరణం వినా క్రికెట్ క్రీడాయాం గచ్చంతు. ఏకః జనః ధావన్ నాగచ్చతి తావన్ మాత్రం దృశ్యతే. అనంతరం కోపి భూతలే పతతి తావన్ మాత్రం దృశ్యతే. మధ్యే కిం జాతం నపశ్యామ. పరంతు ఇదానీం టీవీ ద్వారా యదా క్రికెట్ పశ్యామః ఓ కథం కందుకం ఆగచ్చతి కిం యాంగిల్ మధ్యే ఆగచ్చతి అత్ర ఎల్బి భవితుం అర్హతి వానవా. అనంతరం టీవీ జనః పునః కెమెరా జనః థర్డ్ ఎంపైర్ ఇతోపి సమ్యక్ రూపేణ పాజిబిలిటీ అస్తి వానవా ఎంపైర్ దోషమకరోద్వా ఎంపైర్ సమ్యక్ కృతవాన్ వానవా ఇది సమ్యక్ రూపేణ ప్రదర్శయ. ఏతావత్ అనుభవః తేషు దివసేషు నాస్తి. ఇదానీమపి తత్ర షార్ట్ సర్క్యూట్ టీవీ ఇత్యాది వ్యవస్థ నాస్తి చేత్ ఇదానీమపి సా ఏవ వ్యవస్థ. పరంతు తదానీమపి స్టేడియం ఫుల్ అభవత్ ఇదానీమపి స్టేడియం ఫుల్ అభవత్. కిమర్థం గచ్చంతి? ఇదమేవ ఉత్తరం. కిమర్థం సంస్కృతం పఠామా? తదర్థమేవ సంస్కృతం పఠామా. యతః అస్మాకం అనువాదాది ద్వారా కించిత్ విషయావగమైన లాభో వర్తతే రుచిర్భవతి. పరంతు యస్మాత్ రుచిస్తత్ర జాయతే అత ఏవ ఇతోపి వాస్తవికం కించిత్ పఠితుం ఇచ్ఛామ. వాస్తవికం వేరియా మధ్యె వస్తుతః యది కశ్చిత్ విలక్షణ చిత్రకారః సమ్యక్ రూపేణ కెమెరా ద్వారా వేరియా దర్శయతి తావత్ డిటైల్ అహం ద్రష్టుం న శక్నోమి. యతః సః వ్యాంటేజ్ పాయింట్ మధ్యె గంతుం శక్నోమి. అహం వ్యాంటేజ్ పాయింట్ మధ్యె గంతుం న శక్నోమి నైవ జానామి. తథాపి యమనుభవన్ అద్యహం అనుభవన్నస్మి కోటి చిత్రైరపి సహ అనుభవః న భవతి. కోటి చిత్రాన్ని భవంతు పరితః స్థాపయంతు కోటి చిత్రాన్ని తథాపి అయమనుభవ అనుభవం. అతః చిత్రాది మాధ్యమేన అనువాదాది మాధ్యమేన అన్యాన్య మాధ్యమేన యో అనుభవో జాయతే తస్య చ స్వసహజానుభవస్య చ మహాన్ భేదో వర్తతే. యథా ఇదానీమపి వస్తుతః గృహే ఉపవిశ్య సమ్యక్ ద్రష్టుం శక్యతే ఫుట్బాల్ క్రీడా తథా కిమర్థం ఏతావత్ ధనం వ్యయీకృత్య తత్ర గచ్చంతి జనాః ఏతావత్ కష్టం అనుభూయ తత్ర గచ్చంతి ఇత్యుక్తే తత్ర అస్తి కశ్చన అనుభవ విశేష. సంస్కృతే అపి స ఏవ అనుభవ విశేషః వర్తతే. అపి చ ట్రాన్స్లేషన్ యదా तत्र किम् अभवत्? मूलग्रन्थः वर्तते भगवद्गीतायां कश्चन श्लोकः वर्तते, न जाने सः अनुवादकः सम्यग्रूपेण, सः सम्यग्रूपेणैव अकरोत्, परन्तु स्वबुद्धेरनुसारं सम्यग्रूपेण अकरोत्। स्वकीय बुद्धिः समीचीना न वा ईश्वरो व्यक्ति, वयं कथं जानीमः? कदाचित् भ्रमः, प्रमादः, मनुष्य टु यर् रिज्यूम, मनुष्यस्य स्वभावः भवति, अथवा तस्य अवगमनानुसारं सः अनुवदति इति अन्यः क्लेशः। तृतीयः क्लेशः वर्तते, कतिचन शब्दानां ट्रान्स्लेशन् एव भवितुं नार्हति, यथा धर्मः, पुण्यं, स्वर्गः, एतेषां विलक्षणपरिभाषा संस्कृते वर्तते, यत् वयं वर्ड् टु वर्ड् द्वारा तस्य अनुवादं कर्तुं कोऽपि न शक्नोति, तत् केवलं लिमिटेशन्स् आफ् लेङ्ग्वेज् इति कथयन्ति। प्रत्येकभाषायाः अपि किञ्चित् काचित् अतः तां सीमां परित्यज्य सा भाषा ऊर्ध्वं गन्तुं प्रभवति। अतः इदानीम् एतत् सर्वं मनसि निधातव्यं भवति, अपि च संस्कृतं तादृशं किञ्चित् महत्त्वपूर्णं वस्तु वर्तते, यस्य एकभाषा अध्ययनमात्रेण भारतस्य आत्मनः अनुभवं भवन्तः कर्तुं शक्नुवन्ति। अन्यभाषाद्वारा, अन्यान्यविज्ञानद्वारा, अन्यान्यपद्धतिद्वारा, अन्यान्यसाधनद्वारा भारतस्य शरीरं भवन्तं अनुभवितुं शक्नुवन्ति, भारतस्य बुद्धिम् अनुभवितुं शक्नुवन्ति, भारतस्य मनः अनुभवितुं शक्नुवन्ति, परन्तु भारतस्य आत्मानमनुभवितुं, यदि आत्मानुभवितव्यो भवति भारतस्य, तर्हि संस्कृतम् एकमात्र उपायः। अनुवादोपि तत्र प्रयोजनं, अनुवादेनापि तत्र प्रयोजनं नास्ति, अनुवादेनापि मार्गः सुगमो भवति, परन्तु अतः संस्कृतस्य, भारतस्य ऋषीणां चिन्तनं कीदृशम्? एकक्षणं विचारयन्तु, एकः तादृशः ऋषिः भारते आसीत् यः प्रायः ऐतिहासिकानां दृष्ट्या दशसहस्रसंवत्सरेभ्यः पूर्वं सः कथितवान्, सह नावतु, सह नौ हुनक्तु, सह वीर्यं करमावहे, तेजस्विनावधीतमस्तु, मा विद्विषावहे। कीदृशी उदात्तभावना वर्तते, एषा भावना कियत् उन्नतभावना वर्तते! यदि एषा भावना अद्य सर्वस्यापि जनस्य मनसि भवेत्, तर्हि विश्वस्य कीदृशप्रगतिः सम्भाव्यते, विश्वस्य रूपं कथं परिवृत्तं भवति, एतादृश उदात्तक आनो भद्रा कर्तवो यन्तु विश्वतः। एकः ऋषिः अन्यः वदति, आनो भद्रा कर्तवो यन्तु विश्वतः, विश्वस्य प्रत्येकस्यापि कोणस्य सकाशात् मम सकाशे भद्राः भद्राः भद्राणि भद्राणि चिन्तनानि मां प्राप्नुयुः इति भद्रचिन्तनस्य आह्वानं करोति ऋषिः, आह्वानं करोति ऋषिः दशसहस्रसंवत्सरेभ्यः पूर्वं, न तु यदा इदानीं टेक्नालजि बहु अग्रे गतं, यदा सर्वमपि विश्वं हस्ते आगतं, मुष्टौ आगतम्, इदानीं न, इदानीं कथनं सरलं सरलं, यथा इदानीं सर्वत्र विश्वे भ्रमामि, सर्वान् अवगच्छामि, अतः सर्वतः गुणस्य सङ्ग्रहणं करोमि, इदानीं सुकरमासीत्, इदानीं सुकरमस्ति, परन्तु तेषु दिवसेष्वपि भारतीयचिन्तने न केवलं तद् वैदिकमन्त्रे प्रत्येकस्मिन्नपि काचित् उदात्तकविता वर्तते, उदात्तभावना वर्तते। तां भावनां, तया भावनया यदा वयं सङ्गताः भवामः, तया भावनया यदा वयं मिलिताः भवामः, तया भावनया यदा वयम् आत्मसात् भवामः, एकताम् उपगच्छामः, तदानीम् अस्माकं जीवनम् एव परिवृत्तं भवति। इदमस्ति संस्कृतस्य बलम्, इदमस्ति संस्कृतस्य आत्मशक्तिः। एतद् आत्मशक्तिं सम्पादयितुं वयं संस्कृतं पठितुमिच्छामः। सङ्गच्छध्वं संवदध्वं सम्भो मनांसि जानताम् इति आह्वानम्, इति उपदेशं कः? ऋग्वेदे वर्तते, ऋग्वेदः वर्तते प्रपञ्चस्य प्रथम टेक्स्ट्, ऐतिहासिकक्रमेणापि, वयं तु नैव विश्वसिमः, वयं तु अनादिवेदाः, अनन्ताः इति, अपौरुषेयाः वेदाः इति वयं विश्वसिमः, आस्तु अस्माकं विश्वासस्य कथा भवतु, ऐतिहासिकानां दृष्ट्यापि यदा वयं परिशीलयामः ऋग्वेदात् प्राचीनं टेक्स्ट् नास्ति इदं दृश्यमं। तादृश टेक्स्ट् मध्ये एतादृश उदात्तकल्पनाः सन्ति, चिन्तनं वर्तते, एकविलक्षणसंस्कृतिर्वर्तते, एकविलक्षणजीवनविधानं वर्तते। यत् जीवनविधानं सर्वस्यापि न केवलं भारतीयस्य, न केवलं कस्यचित् गणस्य, परन्तु विश्वस्य सर्वस्यापि सम् अभ्युदयाय भवितुमर्हति। अतः तादृश ऋषिचिन्तनं ऋषिभावनां तस्य वयम् औरसाः पुत्राः, तां भावनाम् अवगन्तुम् अवगत्य किञ्चित् आत्मशक्तिं वर्धयितुं संस्कारं वर्धयितुं वयं संस्कृतम् अवश्यं पठामः। भगवद्गीतां पश्यतु, एकैकश्लोकः अपि अत्यन्तरमणीयः, अत्यन्तसरलः अपि वर्तते। भगवद्गीता भाषादृष्ट्या अत्यन्तसरला, परन्तु भावनादृष्ट्या अत्यन्तकठिनः। एकस्य श्लोकस्य सारं वयम् एकस्मिन् जन्मनि अनुष्ठातुं न शक्नुमः, तावत् गाम्भीर्यमस्ति। यद्यपि भाषा सरला, गाम्भीर्यं भिन्नं, समुद्रः दृश्यते सरला, समीपे गच्छामः अवतरामः नष्टा भवामः। तद्वत् एका संस्कृतभाषा अतीव, किम् अहम् अधिकं वदामि, भवन्तस्तु जानन्ति एव। अतः अस्यां भाषायां भारतीयानाम् अस्माकं चिन्तनं निहितमस्ति, भारतीयानाम् अस्माकं संस्कृतिः निहिता वर्तते, जीवनविधानं निहितमस्ति। सर्वम् इत एव स्वीकृत्य 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 भाषान्तरेषु अपि तदा तदा अनेके महात्मानः संभारतस्य एकं चारित्र्यम् अभिवर्धितवन्तः। यथा रामायणस्य प्रेरणां स्वीकृत्य तुलसीदासः यदा मानसम् अलिखत्, इदानीं यावत् रामचरितमानसम् अनुवर्तते अतिशेते, एवमेव भिन्नभिन्नलोकभाषासु, परन्तु मूलस्रोतः संस्कृते वर्तते। सः यदा वयं किञ्चित् यस्तु मानसस्य वा कस्यचिदपि ग्रन्थस्य टेस्ट् एव न जानाति, रुचिमेव न जानाति, तस्य विषये अन्या कथा। यस्तु तत्र किञ्चित् टेस्ट् अनुभवति, रुचिम् अनुभवति, सः चिन्तयति तर्हि मूलरामायणं कथं भवितुमर्हति, वाल्मीकेः रामायणं कथं भवितुमर्हति। आदिकविः, विलक्षण उपमानानि, भारतीयकाव्यपरम्परायाः रूपरेखानिर्माणम् अकरोत् वाल्मीकिः। तदारभ्य अद्यपर्यन्तं सा एव प्रणाली प्रवर्तते संस्कृतकाव्यपर, न केवलं संस्कृते, हिन्दी, मराठी, तेलुगु, तमिळ् सर्वेष्वपि, सर्वास्वपि भाषासु आदिकाव्यस्य रामायणस्य यत् रूपरेखा वर्तते, नाम काव्यं नाम किं, काव्यस्य किं किं काम्पोनेण्ट्स् भवेयुः, कति रसा भवेयुः, वर्णनं कथं भवेत्, अलङ्कारः के भवेयुः, काव्यमर्यादा का, सर्वं वाल्मीकिना प्रतिष्ठापितं वर्तते। तदारभ्य कालिदासेन स्वीकृतं, तदारभ्य भासेन स्वीकृतम्, एवं भिन्नभिन्नकविभिः अस्माकं वाङ्मयं संवर्धितं वर्तते। अतः विशालं वाङ्मयम्, अत्यन्त सिस्टमेटिक्, अत्यन्तशास्त्रीयं व्याकरणं संस्कृते वर्तते, अपि च पाणिनिव्याकरणम् अत्यन्त साङ्केतिकं वर्तते, अपि च संस्कृतभाषायाम् एकं महत्त्वमस्ति। मम एकं चालेञ्ज् अस्ति, अहम् इदानीम् एन् आर् कुमार् महोदयः मम सकाशे उपविशति, अतः अहं तस्य सकाशे कथयन्नस्मि, भवतां सकाशे कथयन्नस्मि। मम एका प्रतिज्ञा वर्तते, वर्षद्वयं ददातु, भवन्तं परिनिष्ठितं संस्कृतस्कालर् अहं करोमि, परन्तु भवन्तः यं कमपि एकं विद्यार्थिनं छात्रं स्वीकुर्वन्तु, कस्मिन् कस्यामपि अन्यस्यां भाषायां परिनिष्ठितं विद्वांसं कर्तुं वर्षद्वयं पर्याप्तं वा? मम छात्रः आङ्ग्ल इङ्ग्लिश् स्वीकुर्वन्तु, अत्र भवन्तः सर्वे इङ्ग्लिश् मध्ये अत्यन्त उत्तम विद्वांसः सन्ति, वर्षद्वये यः किञ्चिदपि आङ्ग्लं न जानाति तं सर्वात्मना आङ्ग्लं शिक्षयित्वा प्रतिष्ठितम् आङ्ग्लविद्वांसं कर्तुं भवन्तः शक्नुवन्ति वा? अहं संस्कृते कृत्वा दर्शयामि, वर्षद्वयं मह्यं समयं यच्छ, वर्षद्वयमपि अहम् अधिककोटं वदामि, अधिकसमयं वदामि, किञ्चित् मम किञ्चित् चालेञ्ज् खलु, अतः किञ्चित् सेफ्टि मेजर् तत्र वस्तुतः वर्षद्वयमपि न आवश्यकम्। इत्युक्ते किमर्थम् एतत् सम्भवति इत्युक्ते संस्कृतम् अत्यन्तसरला भाषा वर्तते, अत्यन्तवैज्ञानिकी भाषा वर्तते, कश्चन परिश्रमः तत्र कर्तव्यः यथा मेथमेटिक्स्। संस्कृतमहं सर्वदा मेथमेटिक्स्, संस्कृतम् अहं सर्वदा कम्प्यूटर् इत्यनेन तोलयामि। किञ्चित् आदौ अवगमने क्लेशः वर्तते, परन्तु पश्यन्तु मेथमेटिक्स् मध्ये एव 100% आयाति। एकनमिक्स् मध्ये वा, हिस्ट्री मध्ये वा, जाग्रफि मध्ये वा, ये विषयाः बहिः दर्शने सरलाः दृश्यन्ते तत्र कदाचिदपि 60-70% अधिकतया अङ्काः नायाति। बहु कष्टं, तत्रापि भवतिः आगतं चेत् हि इस् जीनियस्। परन्तु इट् इस् वेरि ईजि इन् मेथमेटिक्स्। कुतः? हा, मेथमेटिक्स् कष्टमपि वर्तते, किञ्चित् प्रवेशे कष्टमस्ति, परन्तु यदा वयं जानीमः तदानीं स्पष्टता अस्ति, नाम एतत् एतदेव, एतदेवमेव इति निश्चितता वर्तते। एवं मातृ जीवद्भाषासु संस्कृतस्य इदं वैशिष्ट्यं वर्तते, इदं संस्कृतम्, इदं संस्कृतं न इत्येव व्यवस्था, स्पष्टता अस्ति। यावत्पर्यन्तं तादृशस्पष्टतां किञ्चित् अवगन्तुं प्रयत्नं कुर्मः तावत्पर्यन्तं किञ्चित् समुद्रे प्रवेशसमये तरङ्गाः यथा आयान्ति तथा, एकवारं मध्ये गतस्य प्रशान्तता एव वर्तते। तद्वत् संस्कृतम् अतीव यस्मात् वैज्ञानिकी भाषा, अपि च सुदृढं यस्मात् व्याकरणं संस्कृतस्य वर्तते, तस्मात् अत्यन्तसरलतया वयं संस्कृतं शिक्षितुं शक्नुमः, संस्कृते वक्तुं शक्नुमः, संस्कृते लेखितुं शक्नुमः। तेन च यदा यदा स्वजीवने यावच्छक्ति उपयोगो भवति तावत्पर्यन्तं स्व अपेक्षितग्रन्थं, यः किञ्चित् कौटिल्य अर्थशास्त्रं पठितुं कश्चित् इच्छे, कश्चित् वात्स्यायनस्य कामशास्त्रं पठितुम् इच्छे, कश्चित् अन्यस्य चोरशास्त्रं वर्तते, चौर्यमपि एका कला वर्तते, एकं शास्त्रमपि लिखितमस्ति, तानि पुस्तकानि पश्यन्ति। यु केन् बिकम् ए वेरि गुड् वाट् यु काल् थीफ् बै अप्लैङ्ग् दोस्, यु केन् इम्प्रोवैस् आफ् कोर्स्। किञ्चित् स्थूलतः तत्र वर्तते, भवन्तः तस्य वर्धनमपि कर्तुं शक्नुवन्ति। एवं कलाः सन्ति, वाङ्मयमस्ति, विद्याः सन्ति, लौकिकविद्याः सन्ति, अलौकिकविद्याः सन्ति, सर्वस्यापि उपरि एकं विलक्षण तत्त्वदर्शनं वर्तते, यद्दर्शनं ऋषयः साक्षात् दृष्टवन्तः, अलौकिकद्रष्टारः ऋषयः, तदस्ति सर्वस्यापि तस्योपरि अनादि नित्य वेदवाङ्मयं वर्तते, यत्र भावनाः विशालाः सन्ति, यत्र भावनाः उदात्ताः सन्ति, यत्र भावनाः उन्नताः सन्ति। तर्हि वयमपि उन्नता भवितुमिच्छामः, तर्हि वयं संस्कृतं पठामः। अतः भवन्तः सर्वे तादृशस्य संस्कृतक्षेत्रे प्रविष्टाः, मम इदम् अद्य भाग्यं वर्तते यदहं भारतादागत्य एतावद्दूरे देशे स्थित्वा भवद्भिः सह स्पष्टसंस्कृतमाध्यमेन कतिचन वचनानि वक्तुम् अहं शक्तवान्, भवन्तः श्रोतुं शक्तवन्तः इत्युक्ते तदस्माकं मध्ये संस्कृतमेव कारणं वर्तते। भारतस्य ऐकसूत्रता, एकसूत्रता, भारतस्य एकात्मता संस्कृतद्वारा एव पूर्वं साधिता आसीत्। पुनः अपि यदि भारतस्य शाश्वतिक एकात्मता आवश्यकी, तर्हि संस्कृतद्वारा एव भवितुमर्हति। अन्यान्यभाषाणाम् आश्रयणेन भारतस्य कदापि एकता न शक्यते। शङ्कराचार्यः कालक्यां उत्पन्नः, बद्रिकाश्रमे उपविश्य भाष्यं लिखति, वाचस्पतिमिश्रः बिहार् बिहार्जनः, सपदि 50 वर्षेषु तस्य उपरि सहस्रपृष्ठात्मकव्याख्यानं करोति, संस्कृतस्य महत्त्वेन करोति, संस्कृतस्य आधारेण माध्यमेन करोति। यदि संस्कृतं नास्ति, वाचस्पतेर्भाषा भिन्ना, शङ्करभगवत्पादानां भाषा भिन्ना, बद्रिकाश्रमे भाषा भिन्ना, तर्हि वयं भिन्ना भवामः। तर्हि भिन्नतायाम् एकता साधनं यदि सम्पादनीयं, तर्हि तत्र संस्कृतमेव प्रभवति। अतः संस्कृतम् अत्यन्त उन्नता भाषा, भाषादृष्ट्यापि रमणीया, भावनादृष्ट्यापि रमणीया, अर्थदृष्ट्यापि गम्भीरा, सांस्कृतिकदृष्ट्या तु एकमात्र उपायभूता। अतः तादृशसंस्कृतभाषायाम् इतोऽधिकं शिक्षितुम्, इतोऽधिकं कृतार्थताम् अनुभवितुम् अहं सर्वान् भवतः आमन्त्रये, अहं सर्वान् भवतः स्वागतीकरोमि। धन्यवादः।